सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः धन्यवादः
धन्यवादः भगिनी धन्यवादः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति अभ्ययानि इति तस्मिन् विषये वयं किञ्चित् कानिचन प्रयोगान् दृष्टवन्तः तत्र किन्तु निश्चयेन प्रायशः खलु अपेक्षया इति अभ्ययानां प्रयोगः कथं भवति इति दृष्टवन्तः अद्य तत्र अद्यतन ह्यस्तन श्वस्तन पूर्वतन इदानीन्तन इति तद् परिशील्य अग्रे गच्छामः तृतीयविभक्ति इति अग्रिमविषयः भवति अस्तु तर्हि तत्र शोभा भगिनी नमस्कारः गीताञ्जलि भगिनी नमस्कारः
नमस्ते महोदय
नमस्कारः भगिनी अस्तु तर्हि तत्र आरम्भं कुर्मः तत्र पेज् 164 मध्ये अस्ति अद्यतन ह्यस्तन श्वस्तन पूर्वतन इदानीन्तन अद्य इति अस्ति अद्य वर्गः यः भवति सः अद्यतनवर्गः ह्यः यः वर्गः आसीत् सः ह्यस्तनवर्गः श्वः यदि वर्गः भवति सः भवति श्वस्तनवर्गः अतः अद्यतन ह्यस्तन श्वस्तन पूर्वतनकाले इति रूपं भवति अपि इदानीन्तनकाले पूर्वतनकाले ऋषयः दृश्यन्ते किन्तु इदानीन्तनकाले ऋषयः न दृश्यन्ते ते सन्ति किन्तु न दृश्यन्ते इति अस्तु तत्र आरम्भं कुर्मः उषा भगिनी अपि तत्र वेदा भगिनी तत्र पठन्ति वा तत्र भीमः अपि युधिष्ठिरः इति सम्भाषणम्
आम् महोदय उषा भगिनी आरम्भं करोति वा
आम् आम् आं भगिनि अद्यतन ह्यस्तन श्वस्तन पूर्वतन इदानीन्तन एतत् सम्भाषणम् उच्चैः पठत भीमः भ्रातः किं चिन्तयसि भवान् नितरां खिन्नः इव
आं भीम अहम् अभिमन्युं स्मरामि स्म अद्यतने युद्धे अन्यन्यगतिकतया अहं तं चक्रव्यूहं भेत्तुं प्रेरितवान् तेनैव सः मृत्युम् उपेतः तेन विना श्वस्तनं युद्धं कथं भवेत् न जाने
सत्यमेव भ्रातः ह्यस्तने युद्धे तस्य पराक्रमः
आश्चर्यास्पदम्
आसीत् सः वीरक्षत्रियः सः स्वधर्मम् आचर्य वीरस्वर्गं प्राप्नोत् भ्रातः त्वं मा सिद्ध्यस्व क्षत्रियाः एव एतादृशं युद्धं लभन्ते आगच्छ आवां स्वस्तनयुद्धस्य विषये चिन्तयाव
अस्तु समीचीनम् अस्तु अत्र पश्यामः किम् अस्ति इति किञ्चित् पश्यामः तत्र अस्तु तत्र भ्रातः किं चिन्तयसि भवान् नितरां खिन्नः इव खिन्नः इत्युक्ते
दुःखितः
समीचीनं खिन्नः इत्युक्ते दुःखितः भवति इति अस्तु समीचीनं भवान् नितराम् इति
In English, always. Nitaram.
Nitaram ki nata. Tatra tu nitaram iti saha artaha na bhoti. Kalo, tatra bahu iti prayashaha.
Bahu wa.
Tatra, padasya ekaheva artaha न भवति, अतः सन्दर्भानुसारेण तत्र अर्थभेदः भवति. अत्र तु सर्वदा युधिष्ठिरः खिन्नः वा न खलु, किन्तु किन्तु अत्र सः खिन्नः बहु दुःखितः इति मन्ये इति, अतः सः वदति भवान् नितरां खिन्नः इव अस्ति. अतः युधिष्ठिरः वदति आं भीम, भीम इति सम्बोधनं, भ्रातः इति अपि सम्बोधनं, भ्राता इति प्रथमविभक्तिरूपं, भ्रातः इति सम्बोधनम्. युधिष्ठिरः किं वदति, अहम् अभिमन्युं स्मरामि स्म, तत्र स्मरामि स्म इति जानीमः खलु, तत्र स्म इत्युक्ते अहं पठामि स्म इत्युक्ते किं भवति, अहं पठामि तत्तु वर्तमानकाले, किन्तु पठामि स्म इति वाक्यमस्ति चेत् तत् किं भवति, भूतकाल
रूपं,
भूतकालं भवति. अहम् अभिमन्युं स्मरामि स्म इत्युक्ते तस्य पूर्वं सः अभिमन्युं स्मरामि, केवलम् एकवारं स्मरणं कृतवान् इति न, तस्य विषये एव चिन्तनं कुर्वन् आसीत्, स्मरणं कुर्वन् आसीत् इति अभिमन्युं स्मरामि स्म. अद्यतनयुद्धे, अद्यतन अद्य युद्धः यः अभवत् तस्मिन् युद्धे, अतः अद्यतनयुद्धे, तत्र अद्यतनयुद्धे इति रूपं कीदृशम्, अद्यः अद्य यः युद्धः प्रचलितः आसीत् सः युद्धः अद्यतनयुद्धः. तत्र तन इति योजयामश्चेत् कीदृश अर्थः प्राप्तः तत्र, अद्यतनयुद्धः युद्धः अस्ति, युद्धः अस्ति किन्तु तत् अद्यतनयुद्धः, तत्र अद्य योगः तन, अद्यतन तन इति योजयामश्चेत्
कालं सूचयति वा महोदय,
अद्य कालं सूचयति किन्तु तन किं भव करोति कालेन, भगिनी
विशेषणं,
विशेषणम् इति न अद्यतन इति अस्तु, किन्तु तत्र तन किं करोति, अर्थः कः, अद्य अद्य इत्युक्ते अद्य
अस्मिन् दिवसे, अद्यतन
सप्तमी तत्र अस्मिन् दिवसे इति न, किन्तु अद्यतन अद्यतन
अद्यतनयुद्धः षष्टिरूपम्
अस्ति, अद्यतनयुद्धः अद्यतनयुद्धः
महोदय, अद्यतनी अद्यतनम् इति त्रिषु लिङ्गेषु भवति.
अस्तु अस्तु भगिनि, किन्तु तत्र अर्थः कः इति प्रथमतया पश्यामः खलु, अर्थः कः इति प्रश्नः समीचीनमेव. अतः पुनरेकवारं रूपं वदतु भगिनि, धन्यवादः, रूपं किं किमस्ति,
अद्यतनः पुंलिङ्गे, स्त्रीलिङ्गे अद्यतनी, नपुंसकलिङ्गे अद्यतनम्.
अस्तु समीचीनम्. अतः तत्र तादृश एव तत्र ह्यस्तन श्वस्तन पूर्वतन इदानीन्तन तत्रापि. अस्तु समीचीनं, धन्यवादः भगिनि. अतः तत्र विशेषणम् इति, किन्तु अर्थः अस्ति षष्टी इति, तादृश अर्थः अस्ति अद्यतनयुद्धे. अनन्यगतिकतया, अनन्यगतिकतया तत्र
महोदय स्पष्टं न भवति, अद्यतन किं किम् अर्थमस्ति,
षष्टि अद्यतन तत्र अद्यस्य इति न वदामः, रामः अस्ति रामस्य इति अस्ति, किन्तु अद्यपदस्य षष्टिरूपं किम् अस्ति,
ओ ओ षष्टि विभक्ति,
अद्य तु अव्ययम् अस्ति, अतः तत्र यदि अद्यस्य इति रूपं न भवति, किन्तु अद्यतन युद्धः that happened today, अथवा today's battle इति तस्मिन् अर्थे भवति, अथवा यस् यः युद्धः अद्यः अभवत् इति, अद्यः अभवत् इति तस्मिन् अर्थे, तत् षष्टि इति, षष्टि सप्तमी तत्र प्रायशः एतदेव इति न वक्तुं शक्नुमः, किन्तु अद्यतनयुद्धः इति वदामश्चेत् तत्र षष्टिरूपमेव भवति.
परन्तु युद्धे सप्तमे
युद्धे इति रूपं भिन्नं भगिनि. अत्तन इति विषयस्य चर्चा भवति खलु इदानीं. तदनन्तरं युद्धः युद्धे इति
इत्युक्ते अद्यतन.
एकनिमिष उषा भगिनी, यदि अद्यतनयुद्धः इति तत्र धन इति पदस्य अर्थः कः इति प्रथमतया अवगन्तव्यं खलु. तदनन्तरं युद्धे इति सप्तमी, तत्तु सत्यं. किन्तु धन इति पदस्य सप्तमी इति अत्र न. अद्यतनयुद्धः इत्युक्ते तत्र प्रायशः षष्टिरूपं भवति इति वार्ता. तदनन्तरं तस्मिन् युद्धे अथवा युद्धसम्बद्ध अन्यानि अपि वक्तुं शक्नुमः. किन्तु तत्र युद्धे इति सप्तमे, तत्तु समीचीनमेव. उषा भगिनी, प्रश्नः अस्ति वा?
अद्यतनयुद्धे इत्युक्ते समस्तपदम् अस्ति वा महोदय?
हा, तत्र समस्तपदं भवति. अतः तत्र अद्यतनः इति रूपं नास्ति खलु तत्र. नो चेत् तत्र उत्तमः रामः इति अस्ति. नो चेत् उत्तमरामः, तत्र उत्तमः विसर्गः न दृश्यते खलु. उत्तमरामः समीचीनं वा भगिनि? अस्तु अस्तु. तत्र अनन्यगतिकतया इति अस्ति. तत्र गीताञ्जलि भगिनि, अनन्यगतिकतया इत्युक्ते किम् इति किञ्चित् वदति वा भगिनि?
गतिकतया तु
तृतीया
अस्ति एकवचन. किन्तु अन्योगः अन्य
प्रसिद्धनाम अस्ति खलु. अनेकाः महिलाः सन्ति अनन्या इति खलु.
प्रसिद्धनामकरणं
न, अन्य कोऽपि नास्ति. अपरूपः अपरूपः अनन्या, एकमेव, एका एव अस्ति इति. अतः अनन्या. तत्र अनन्यगतिकता इति गति, अन्यत् किमपि कर्तुं तत्र अनन्य अन्य कोऽपि मार्गः नास्ति. तत्र अभिमन्युविचारे वयं सर्वे जानीमः खलु सः तत्र किम् अभवत् इति. अतः सः वदति अद्यतनयुद्धे अनन्यगतिकतया अहं तं चक्रव्यूहं वेत्तुं प्रेरितवान्. एकनिमिषे वदामि. हा, तत्र अनन्यगतिकता इति पदमस्ति. अनन्यगतिकता तस्य, हा, तस्य तृतीयविभक्तिः अस्ति अनन्यगतिकतया. अनन्यगतिकता इति पदं तस्य तृतीया अस्ति अनन्यगतिकतया. इदानीम् अनन्यगतिकता इति किम् अस्ति? अनन्यगतिः, अनन्यगतिः तत्र तस्य भावः अस्ति अनन्यगतिकता इत्युक्ते कीदृशः स्थितिः, कीदृशी स्थितिः इत्युक्ते यस्मिन् अथवा यस्यां स्थितौ अन्यः कोऽपि मार्गः नास्ति, विकल्पः नास्ति. अनन्यगतिकता इति तस्याः भावः, तस्याः स्थितेः भावः अनन्यगतिकता. तत्र यस्यां स्थितौ अन्य कोऽपि मार्गः नास्ति, न कोऽपि उपायः अस्ति, तादृशी परिस्थितिः अस्ति, तस्याः स्थितेः भावः अस्ति अनन्यगतिकता. तेन अथवा तया तत्र अन्य कोऽपि मार्गः नास्ति इति कृत्वा अथवा तेन कारणेन अहम् अन्य कोऽपि मार्गः नास्ति इति कृत्वा अहं किं कृतवान् अद्यतनयुद्धे? अहं तं कम् इत्युक्ते कम्
अभिमन्युम्
चक्रव्यूहं भेत्तुं प्रेरितवान् भेत्तुम् इत्युक्ते
छेदनं कर्तुं
तत्र हा तत्र एत्ति इति अस्ति तत्र तुमुन् रूपम् एत्ति इत्युक्ते गच्छति इति तत्र भेत्तुं भेत्तुं तुमुन् रूपं प्रेरितवान् अहम् उक्तवान् भवान् गच्छतु इति अभिमन्युम् उक्त्वा अहमेव प्रेषितवान् तं चक्रव्यूहं भेत्तुं प्रेरितवान् अहमेव तं प्रेरितवान् किं कर्तुं चक्रव्यूहं भेत्तुं प्रेरितवान् तेन एव सः मृत्युम् उपेतः इत्युक्ते किं नरेश् महोदय उपेतः तत्र कीदृश क्रियापदम् इति तत्र उपेति उपैति इति प्रायशः उपैति पूर्वमपि दृष्टवन्तः तत्र उपयोगः एति उपेतः तत्र पठितः इति तादृशरूपम् उपेतः इति किं भवति अभिमन्युः तत् सः इत्युक्ते अभिमन्युः तस्य विशेषणमस्ति उपेतः सः उपेतः
प्राप्नोति
मृत्युम् उपेतः हा प्राप्तवान् इति सः प्राप्तवान् मृत्युं प्राप्तवान् तेन एव सः मृत्युं प्राप्तवान् उपेतः इत्युक्ते प्राप्तवान् समीचीनं महोदय हा तेन विना श्वस्तनयुद्धं कथं भवेत् न जाने इदानीं तत्र तेन विना इति अस्ति शोभा भगिनी तेन विना इत्युक्ते केन विना
नमस्ते महोदय
नमस्कारः नमस्कारः भगिनि तत्र तेन विना
आगतवती तेन इत्युक्ते तत्र तु अभिमन्युः
एव सूचितः इदानीम् अभिमन्यु इति पदस्य तृतीया किम् अस्ति
तत्र अभिमन्युः इत्युक्ते गुरुः इति गुरुणा अभिमन्युना
हा समीचीनं भगिनि अभिमन्युना विना हा किन्तु एतावत् वयं तृतीयविभक्ति न कृतवन्तः धन्यवादः भगिनि अग्रिमविषयः तदेव अस्ति हा किन्तु समीचीनमेव गुरुणा इति तादृशरूपम् अभिमन्युना विना श्वस्तनयुद्धं कथं भवेत् न जाने इति हा तत्र न जाने इति जाने इति किं रूपम् अस्ति
आत्मनेपदी
जानामि एकवचनम् आत्मनेपदरूपं तत्र ज्ञादातुः कीदृशधातुः अस्ति ज्ञादातुः परस्मैपदी वा आत्मनेपदी वा
ज्ञादातुः
उभयपदी अस्ति हा अतः जानामि इति एकं रूपं तदस्ति परस्मैपदीरूपम् आत्मनेपदीरूपम् अस्ति जाने इति अतः अहं न जानामि इति तादृश अर्थः न जाने इत्युक्ते अहं न जानामि तत्र श्वस्तनयुद्धं कथं भवेत् इति अहं न जानामि इति युधिष्ठिरः भवति अतः पुनः भीमः वदति सत्यमेव भ्रातः ह्यस्तने युद्धे इदानीम् उषा भगिनी तत्र विशेषणविशेष्यभावः अस्ति वा अत्र
ह्यस्तने
ह्यस्तने युद्धे इदानीं समस्तपदं नास्ति खलु इदानीं अतः तत्र हा सप्तमीभक्ति इदानीं तत्र विशेषणभावः अस्ति इति
परन्तु अव्यय अस्ति विभक्ति अपि अस्ति वा महोदय
किम् अव्ययम्
अद्यतन ह्यस्तन अव्यय अस्ति वा महोदय
तत्र धन इति यदि तत्र भगिनी तत्र यदि तत्र भवती एव उक्तवती तत्र अद्यतन इति विशेषणं भवति इति अतः अद्यतन अद्यतनी अद्यतनम् इति रूपम् अस्ति चेत् तत्र लिङ्गभेदः अस्ति खलु
लिङ्गभेदः अस्ति खलु लिङ्गभेदः अस्ति चेत् किम् अस्ति तत्र अव्ययम् इति अस्माकं नियमः कः पेज् 158 मध्ये किम् अस्ति त्रिषु लिङ्गेषु सप्तसु विभक्तिषु त्रिषु वचनेषु च यत् विकारं न प्राप्नोति तद् अव्ययम्
परन्तु अव्ययं नास्ति
तत्र यदि तत्र लिङ्गभेदः अस्ति चेत् यस्य पदस्य लिङ्गभेदः विभक्तिभेदः वचनभेदः नास्ति तत् तादृशपदमेव अव्ययम् अत्र लिङ्गभेदः अस्ति इति कृत्वा तत्र ह्यस्तने युद्धे इति तादृशरूपं भवति अतः तत्र ह्यस्तने युद्धे तस्य पराक्रमः कस्य पराक्रमः मधुसूदन महोदय कस्य पराक्रमः
अभिमन्योः
अभिमन्योः गुरोः अभिमन्योः पराक्रमः वंशीसुध भगिनी नमस्कारः मधुसूदन महोदय नमस्कारः अभिमन्योः नमस्कारः भगिनि चिन्ता मास्तु भगिनि तत्र पेज् 164 मध्ये स्मः पेज् 164 तस्य अभिमन्योः पराक्रमः आश्चर्यास्पदम् आसीत् आश्चर्यजनकम् आसीत् सर्वे चकिताः सन्तः सर्वे दृष्टवन्तः तस्य पराक्रमं दृष्ट्वा ते सर्वे चकिताः आसन् ह्यः ह्यस्तने युद्धे अभिमन्योः पराक्रमः आश्चर्यास्पदम् आसीत् तत्र आश्चर्यास्पदं सर्वदा नपुंसकलिङ्गे एव भवति तत्र आस्पदम् इति एव रूपं भवति सः वीरक्षत्रियः सः अभिमन्युः वीरक्षत्रियः सः स्वधर्मम् आचर्य तत्र स्वधर्मम् इति विभक्ति का हा लक्ष्मी भगिनी स्वधर्मम् इति विभक्ति का तत्र लक्ष्मी भगिनी हा द्वितीयविभक्ति कर्मपदम् आचर्य आचर्य इति कीदृशरूपम् लेबन्तरूपं लेबन्तरूपम् आचरति आचर्य आ उपसर्गः अस्ति इति कृत्वा आचर्य लेबन्तरूपं वीरस्वर्गं प्राप्नोत् प्राप्नोत् इति रूपं कीदृशं तत्र वेदा भगिनी प्राप्नोत् इति
प्राप्नोत् लोट्लकार वा
लोट्लकर न तत्र उपसर्ग अस्ति वा उपसर्ग अस्ति वा नरेश महोदय उपसर्ग अस्ति वा प्राप्नोत् मध्ये प्र उपसर्ग अस्ति अस्तु अतः वेदा भगिनी अतः प्राप्नोत् मध्ये प्र उपसर्ग अस्ति अतः प्रायोगः आप्नोत्
आप्नोत् इति रूपं विधिलिङ्गम् अस्ति वा
विधिलिङ्गं लङ्लकारः भूतकालरूपम् आप्नोत् किन्तु प्र उपसर्ग अस्ति अतः प्राप्नोत्
प्राप्नोत् प्रथमपुरुषः एकवचनं
समीचीनं भगिनि भ्रातः त्वं मां
क्षम्यतां
चिन्ता मास्तु त्वं मां किद्यस्व त्वं मा किद्यस्व मा इत्युक्ते मास्तु मास्तु किं मास्तु किद्यस्व किद्यस्व कीदृशरूपम् उषा भगिनी किद्यस्व
मध्यमपुरुष लोट्लकार आत्मनेपदि महोदय
किद्यते किद्यस्व समीचीनं भगिनि त्वां किद्यस्व किन्तु मा किद्यस्व त्वं मा किद्यस्व खिन्नः मा भवतु दुःखं त्यजतु दुःखं मास्तु अलं दुःखेन इति क्षत्रियाः एव एतादृशं युद्धं लभन्ते
क्षत्रियाः एव एतादृशं युद्धं लभन्ते, प्राप्नुवन्ति, एतादृशं क्षत्रिया वीरक्षत्रियाः एव एतादृशं युद्धं प्राप्नुवन्ति. आगच्छ, आगच्छ इति कीदृशरूपं नरेश महोदय? आगच्छ
लोट्लकार मध्यम पुरुष
एकवचनं. हा समीचीनं. आवाम्, हा आवां श्वस्तनयुद्धस्य विषये चिन्तयाव. हा तत्र चिन्तयाव, गीताञ्जलि भगिनी चिन्तयाव कीदृश क्रियापदं तत्र?
चिन्तयाव लोट् महोदय उत्तम पुरुष द्विवचने,
द्विवचनम् आवां चिन्तयाव. यदि लट्लकारः आसीत् चेत् रूपं किं भवति?
किं महोदय?
लट्लकाररूपम् आसीत् चेत्
चिन्तयावः.
हा केवलं तत्र विसर्गः भवति. हा समीचीनं भगिनि. हा तावदेव अस्तु.
प्रश्न महोदय, अत्र एतादृशं कीदृशपदं प्रातिपदिकं किं महोदय? एतादृश
तत्र दृशम् इत्युक्ते तत्र अभ्यासपुस्तके अपि अस्ति खलु भगिनि, तत्र दृशम् इत्युक्ते ईदृशं सदृशं, यत् समानदृश्यं भवति अथवा एतादृशरूपं वयं द्रष्टुं शक्नुमः.
अर्थ तु अवगतं महोदय, पदरूपं प्रातिपदिकम् अकारान्त अस्ति महोदय.
हा तत्र युद्धः एतादृशः युद्धः. हा अभ्यासपुस्तके अपि अस्ति भगिनि, तत्र रूपं सम्यक्तया स्मरामि न वा इति. तत्र किम् अस्ति एतादृशी स्त्रीलिङ्गे एतादृशी विशेषणं, विशेषणं समीचीनं सत्यं भगिनि. तत्र एतादृशी स्त्रीलिङ्गे एतादृशी इति मन्ये इकारान्तम् इति मन्ये, एतादृशः इति पुल्लिङ्गे, नपुंसकलिङ्गे एतादृशं, सदृशं, हा हा सदृशं सदृशी सदृशः पुल्लिङ्गे
भवति. शब्दमञ्जर्यां तु 55 पुटे महोदय, शकारान्त नपुंसकलिङ्गम् एवं दत्तं.
किन्तु
शकारान्त
अस्तु 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 अस्ति भगिनि. तत्र हा तादृशी, हा तत्र अभ्यासपुस्तके पाञ्चालिका इति भवति, तत्र बालिका पृच्छति एतादृशी पाञ्चालिका इति किमपि अस्ति, किन्तु इकारान्तपदं स्त्रीलिङ्गे. अत्र पुल्लिङ्गरूपम् एतादृशं युद्धं लभन्ते. अस्तु अग्रे गच्छामः. शोभा भगिनी तत्र अग्रे पठति वा प्रथमाभ्यासः?
आं महोदय, तत्र दृष्टवती महोदय, तत्र तादृशम् अपि अस्ति. नियर् इति अस्ति वा
महोदय? यथा एषः अपि सः, एषा सा,
तावदेव
तावदेव तावदेव. तत्र तादृश एतादृश अपि अन्यत् रूपम् अस्ति सदृश. हा सदृश,
कीदृश सदृश,
हा कीदृश इति प्रश्नः. सदृश लैक् दिस् ओन्ली, हा समानरूपं, समानरूपम् इति सदृश. तत्र सदृशः दृश्यन्ते इति, सदृशः तत्र भ्रातरः अथवा भ्रातरौ सदृशौ स्तः, भ्रातरौ सदृशौ स्तः. तत्र एकः अपि तस्य सहोदरः समानरूपेण दृश्यन्ते इति कृत्वा अतः सदृशः अपि रूपमस्ति. हा अस्तु शुभभगिनी.
महोदय सदृश अपि अपि विशेषणपदं न
महोदय? सदृशः सदृशी सदृशं विशेषणं.
धन्यवादः. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानं पूरयत. अद्यतननाटकस्य ह्यस्तनलेखः, अद्यतनकार्यं श्वस्तनकार्यक्रमाय, श्वस्तनपरीक्षार्थं पूर्वतनकार्यम् प्रथम इति पदानि दत्तं. प्रथमं सुलेखा लेखनकार्यं सम्यक् करोति. तस्याः लेखनकार्यं सम्यक् करोति इति वर्तमानकाले तस्याः अद्यतनकार्यं नास्ति, समीचीनः इति अस्ति तत्र. अद्यतननाटकस्य ह्यस्तनलेखः समीचीनः अस्ति इति भवितुम् अर्हति वा महोदय?
हा भगिनि, तत्र प्रायशः अद्यतननाटकस्य अनन्तरं काम भवेत् इति मन्ये भगिनि. अद्यतननाटकस्य ह्यस्तनलेखः तत्र किञ्चित् क्लेशः भवति. अतः प्रायशः तत्र केवलं
अस्तु, तत्र ह्यस्तन इत्युक्ते भूतकाले
ह्यस्तनलेखः समीचीनः अस्ति, सः ह्यः लिखितवती किन्तु तत् समीचीनः
आसीत् इति न आवश्यकं वा तत्र?
इदानीं तत्र सा लिखति इति विषयः नास्ति, सा लिखितवती. इदानीं विषयः अस्ति लेखनं कथम् अस्ति इति. इदानीं तत्र पुस्तकं पश्यामः, एतत् पुस्तकं गतवर्षे एतस्य मुद्रणं कृतम्, पुस्तकस्य मुद्रणं गतवर्षे कृतं, किन्तु पुस्तकं समीचीनम् अस्ति इति वदामः खलु?
अवगतं महोदय.
अतः तत्र लेखनं दृष्ट्वा एतत् सम्भाषणं भवति इति मन्ये. अतः तत्र सुलेखा लेखनकार्यं सम्यक् करोति तस्याः.
तत्र किञ्चित् भ्रमः जातः, ह्यस्तनलेखः समीचीनः अस्ति एव
समीचीनः अस्ति. सः ह्यः लिखितवती किन्तु इदानीं तस्य विषये चर्चा भवति इति तावदेव.
किमर्थं चेत् तत्र पठिष्यति इति अपि आगच्छति.
किञ्चित् कठिनः अस्ति एषः अभ्यासः. अस्तु, प्रथमतया तत्र किं षष्ट वाक्यानि सन्ति, किन्तु तत्र केवलं पञ्चपदमेव दत्तानि सन्ति. अतः तत्र अद्यतननाटकस्य इति तत्र नूतनपदम् इति कृत्वा एव तत्र समीचीनानि तत्र सङ्ख्या सम्यक् भवति खलु, नो चेत् क्लेशः अस्ति. अस्तु, अग्रे मधुसूदन महोदय, अग्रे श्यामा.
क्षम्यतां महोदय, अहं किञ्चित् भयः गतवान्.
अस्तु 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 अस्तु, चिन्ता मास्तु, चिन्ता मास्तु महोदय, चिन्ता मास्तु. अस्तु, चिन्ता मास्तु. अस्तु, वंशीसुधा भगिनी, अग्रे.
आं महोदय, द्वितीयवाक्यं श्यामा पूर्णतः पठिष्यति. श्यामा श्वस्तनपरीक्षार्थं पूर्णतः पठिष्यति.
श्वस्तनपरीक्षार्थम् अपि तत्र किमर्थं, तत्र किमर्थं पठिष्यति स इत्युक्ते तत्र श्वस्तनपरीक्षार्थम् इति. समीचीनं भगिनि. श्याम श्वस्तनपरीक्षार्थं पूर्णतः पठिष्यति, समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनि.
अस्तु, बालाः नाट्याभ्यासं कुर्वन्ति. अद्यतननाटकस्य
समीचीनं भगिनि. बालाः इदानीं वाक्यं पूर्णवाक्यं वदतु. बालाः प्रायशः भवति भगिनि, किन्तु एतत् स्वीकुर्मः, सत् समीचीनमेव तदपि, किन्तु एतत् स्वीकुर्मः भगिनि. अद्यतननाटकस्य नाट्याभ्यासं कुर्वन्ति, अद्यतननाटकस्य नाट्याभ्यासं कुर्वन्ति, समीचीनम्. उषा भगिनी, अग्रे.
भवती कदा करिष्यति, भवती अद्यतनकार्यं कदा करिष्यति,
हा भवती अद्यतनकार्यं कदा करिष्यति. समीचीनं भगिनि. हा अस्तु, अग्रे वेदा भगिनि.
एकनिमिषं महोदय. अद्यतनकार्यं कदा करिष्यति वा अहं चिन्तयामि. श्वस्तनकार्यक्रमाय कदा करिष्यति न
तत्र श्वस्तनकार्यक्रमाय इति तत्र चतुर्थी अस्ति चेत् किं भवति? चतुर्थी अस्ति चेत् तत्र श्वस्तनकार्यक्रमाय इति चतुर्थी रूपम् अस्ति खलु भगिनि. चतुर्थी अस्ति चेत् तत् किं सूचयति तत्र? अहं तत्र अहं परीक्षाय परीक्षा न परीक्षाय न किन्तु हा तत्र परीक्षार्थम् इति यत् अस्ति तत् सूचयति किमर्थम् एतत् करोति इति. तादृशार्थः अपि चतुर्थी विभक्ति श्वस्तनकार्यक्रमार्थं. किन्तु अर्थः चतुर्थी विभक्ति अर्थः अस्ति किमर्थम् इति प्रश्नस्य उत्तरम्. अतः तत्र श्वस्तनकार्यक्रमाय इति स्थाने श्वस्तनकार्यक्रमार्थं कदा करिष्यति इत्युक्ते तत्र किमपि नास्ति खलु. अपि अन्यत् तत्र करिष्यति इति कीदृशधातुः कीदृशक्रियापदं सकर्मकः वा अकर्मकः वा?
करिष्यति किं करोति
कर्मपदं भवति वा सकर्मकः. अतः तत्र भवति कदा करिष्यति अस्ति चेत् इदानीं नूतनपदं कीदृशपदं भवति? कर्मपदं भवति वा?
अद्यतनकार्यं समीचीनमस्ति.
अतः तत्र चतुर्थी विभक्तिरूपं समीचीनं न भवति. किन्तु हा समीचीनं वा भगिनि?
आम् 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 महोदय. दीपकः अधुना पर्यन्तं न कृतवान्. पूर्वतनकार्यम् अधुना पर्यन्तं न कृतवान्.
हा समीचीनं भगिनि. पूर्वतनकार्यं यत् पूर्वमेव करणीयम् आसीत् किन्तु सः अधुना पर्यन्तं न कृतवान्. सः न कदा करोति इति न जानीमः किन्तु सः अधुना पर्यन्तं सः पूर्वतनकार्यं न कृतवान्. समीचीनं भगिनि. हा अस्तु, अग्रे नरेश महोदय.
गिरीशः अधुना अभ्यासं करोति. गिरीश अधुना श्वस्तनकार्यक्रमाय अभ्यासं करोति.
हा तत्र करोति इति क्रियापदं सकर्मकक्रियापदं किन्तु तस्य कर्मपदं तत्र दत्तमस्ति अभ्यासं करोति. अतः कर्मपदं न आवश्यकम्, अन्यत् पदम् आवश्यकमस्ति किमर्थम् अभ्यासं करोति. अतः श्वस्तनकार्यक्रमाय अथवा अन्यत् रूपं किम् अस्ति महोदय?
कार्यक्रमार्थम्
कार्यक्रमार्थं श्वस्तनकार्यक्रमार्थं सः अभ्यासं गिरीशः अधुना अभ्यासं करोति. समीचीनं महोदय. हा अस्तु, अग्रे गीताञ्जलि भगिनि अग्रिम अभ्यासः तत्र.
आम् महोदय, एतत् सम्भाषणं पूर्णं कुरुत. सुधीरः गिरीश ह्यस्तनपाठं लिखितवान् वा?
गिरीशः
आम् महोदय, ह्यस्तनपाठं लिखितवान्.
आम् लिखितवान् सत्यं. समीचीनं. अस्तु, अग्रे
अग्रिमतु. बहु किमपि ध्वनिः अस्ति महोदय, क्षम्यताम्. अधुना समीचीनम्. सुधीरः अधुना किं करोषि? गिरीशः अधुना अहं पाठस्य सज्जतां करोमि. भवान् किं करोति? अस्तु, अधुना अहं पाठस्य सज्जतां करोमि. श्वस्तनपाठस्य
प्रायशः
सज्जतां करोमि.
सज्जतां करोमि अथवा अद्यतनपाठस्य सज्जतां करोमि प्रायशः.
अद्यतन अपि
भवति किमपि भवति समीचीनम् अस्तु अग्रे शोभा भगिनी अग्रे
आं महोदय सुधीरः अहं पाठं लिखामि तत्र अहं श्वस्तनपरीक्षार्थं पाठं लिखामि भवितुम् अर्हति महोदय अपि च अहं अद्यतन श्वस्तनकार्यक्रमाय पाठं लिखामि अपि भवितुमर्हति
तदपि भवितुमर्हति तत्र एकमेव उत्तरमिति नास्ति तत्र अतः बहु किमपि तत्र स्थापयितुं शक्नुमः समीचीनं अस्तु तत्र प्रायशः तत्र अग्रिमे पुटे तत्र प्रायशः किमपि नास्ति अस्तु स्वीकृत्या कुर्मः तत्र प्रायशः बहु किमपि नास्ति इति मन्ये अस्तु वंशीसुधा भगिनी तत्र श्यामः अपि गोविन्दः इति अस्ति तत्र एकवारं सम्भाषणं पठतु तत्र भवती अपि लक्ष्मी भगिनी
अहं श्यामः वा
अस्तु लक्ष्मी भगिनी गोविन्दः
अस्तु एतत् सम्भाषणं पठित्वा प्रश्नानाम् उत्तराणि लिखत गोविन्दः भवतः अद्य परीक्षा आसीत् किम्
आम् आसीत् ततः एव आगच्छामि
अद्यतनपरीक्षापत्रं कथम् आसीत्
अतीव सरलम् आसीत्
एवं वा पूर्वतनपरीक्षापत्रं कथम् आसीत्
तत्तु कठिनम् आसीत्
अहम् अधुना इदानीन्तनकार्यार्थं पत्रालयं गच्छामि
गच्छतु भवान् श्वस्तनपरीक्षायाः सज्जतां कदा करिष्यति
सायङ्काले करिष्यामि अधुना गच्छामि
हा समीचीनम् अस्तु सर्वे अवगच्छन्ति वा तत्र कोऽपि क्लेशः अस्ति वा अस्मिन् सम्भाषणे प्रायशः सर्वं सरलमेव अस्ति इति मन्ये इदानीन्तनकार्यार्थं पूर्वतनकार्यार्थं पूर्वतनकार्यम् इदानीन्तनकार्यं कार्यार्थं कार्याय इति अस्तु तत्र अतीवसरलं किम् आसीत् तत्र उषा भगिनी प्रथमप्रश्नस्य उत्तरं किम्
आं महोदय अतीवसरलं किम् आसीत् अद्यतनपरीक्षापत्रं सरलम् आसीत्
अद्यतनपरीक्षापत्रम् अतीव सरलम् आसीत् समीचीनं अस्तु वेदा भगिनी द्वितीयं
कठिनं किम् आसीत् पूर्वतनपरीक्षापत्रं कठिनम् आसीत्
पूर्वतनपरीक्षापत्रं कठिनम् आसीत् समीचीनम् अस्तु नरेश महोदय इदानीं तत्र पत्रालयं किमर्थं गच्छति इति तत्र श्यामः श्यामः पत्रालयं किमर्थं गच्छति
अधुना इदानीं कार्यार्थं गच्छति
इदानीन्तनकार्यार्थं श्यामः पत्रालयं गच्छति समीचीनं गीताञ्जलि भगिनी अग्रे
श्यामः तस्याः सज्जतां सायङ्काले करिष्यति श्यामः कस्याः श्वस्तनपरीक्षायाः सज्जतां सायङ्काले करिष्यति
समीचीनं भगिनि समीचीनम् अस्तु अस्तु इदानीं तत्र अधो निर्दिष्टपदानां प्रयोगेण वाक्यानि वदत इति अस्ति अस्तु तत्र पश्यामः अद्यतनकार्यम् इति तत्र
शोभा भगिनी सज्जताम् अपि च सज्जः समानं पदे स्तः वा
न सज्जः इति विशेषणं सज्जता इति यत् कुर्मः सा सज्जता अहं परीक्षार्थं न अहं परीक्षार्थं सज्जः अस्मि अहं या सज्जता आवश्यका तां सज्जतां कृतवान् अस्मि.
अस्तु तर्हि सज्जः इत्युक्ते तत्र विशेषणं भवति. सज्जता इति क्रियापदं भवति वा महोदय?
न न, सज्जता इति यत् करणीयम् अस्ति सा अस्ति सज्जता. सज्जता प्रिपरेशन् इति. सज्जः सज्जः इत्युक्ते प्रिपेर्ड् इति. प्रिपेर्ड् विशेषणम् अहं सज्जः, सा सज्जा. तत्र सज्जता इति यत् यत् कुर्मः.
यथा सिद्धता अपि अस्ति
सिद्धः सिद्धता सिद्धः. समीचीनं. सिद्धः अहं सिद्ध अहं सिद्धः सा सिद्धा सिद्धता.
रूपं किं भगिनि तत्र क्रियाविशेषणं भवति वा सज्जताम् इति?
सज्जता तत्र सज्जता इति यत् करणीयं तत्र त्वान्तरूपं न तत्र किं पठितः इति तादृशरूपम्. शत्रान्तरूपं
त प्रत्यय इति सज्जतः सज्जता सज्जतां
प्रत्यय भवति वा? अस्तु धन्यवादः.
अस्तु
धन्यवादः.
अस्तु इदानीं तत्र
किन्तु महोदय तत्र सज्जता इति स्त्रीलिङ्गे नास्ति किल तत्र तु? सज्जतां
सज्जता इति स्त्रीलिङ्गे न न सज्जता इति स्त्रीलिङ्गे एव अस्ति. स्त्रीलिङ्गे एव अस्ति अत्र अपि सज्जता.
कस्याः सज्जताम्? अस्तु अस्तु
कस्याः इति कस्याः इति त्यजामः. कस्याः इति तत्र परीक्षा अस्ति इति कृत्वा परीक्षायाः सज्जता. किन्तु यदि तत्र एतत् कुर्मः तत्र कोऽपि कार्यक्रमः अस्ति कार्यक्रमस्य सज्जता.
ओ सज्जता सर्वाणि पदानि सिद्धता सज्जता स्त्रीलिङ्गे एव.
तत्र भगिनि तत्र सुन्दरता इति तादृश सज्जता
तादृश अहं चिन्तितवती महोदय तत्र तु गुणविशेषः अस्ति किल सुन्दरता मधुरता इति.
केवलं रूपं केवलं रूपं स्त्रीलिङ्गे अस्ति इति वक्तुम् इच्छामि तावदेव. ता इति स्त्रीलिङ्गे अस्ति सिद्धता सज्जता.
अत्र महोदय सज्जतां तु कर्मपदम् अस्ति.
अतः द्वितीयविभक्तिरूपम् अस्ति तत्र सज्जतां कदा करिष्यति किं करिष्यति इति क्रियापदम् अस्ति. कर्मपदम् आवश्यकं खलु. भवान् कदा करिष्यति भवान् किं करिष्यति सज्जतां करिष्यति. कस्याः सज्जतां श्वस्तनपरीक्षायाः सज्जताम्. इदानीं भवान् श्वस्तनपरीक्षायाः सज्जतां कदा करिष्यति. समीचीनं वा?
पुंलिङ्ग् अस्ति महोदय. पुंलिङ्ग् अस्ति चेत् सज्जतम्
न न न सज्जता सज्जता सर्वदा स्त्रीलिङ्गे एव अस्ति. अतः अहम् उक्तवान् कोऽपि कार्यक्रमः अस्ति कार्यक्रमस्य सज्जता. सज्जता इत्युक्ते केवल प्रिपरेशन् सज्जता.
भवान् सज्जः इति अपि उक्तवान्.
सज्जः तत् सज्जः भिन्नः अस्ति. सज्जः भिन्नः अस्ति सज्जता भिन्नः अस्ति. पुनः वाक्यं वदामि भगिनि 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 अहं पुनः वाक्यं वदामि. तत्र परीक्षा अस्ति. परीक्षा श्वः भवति परीक्षा. अहं पृच्छामि भवतीं पृच्छामि भवती सज्जा वा भवती सज्जा वा परीक्षार्थं भवती सज्जा वा इत्युक्ते किम्?
आर् यू रेडी?
किन्तु तद् अन्यरीत्या प्रष्टुं शक्नुमः. या सज्जता आवश्यकी सा तां सज्जतां भवती कृतवती वा? परीक्षार्थं या सज्जता आवश्यकी तां सज्जतां भवती कृतवती वा? सज्जता यत् अतः तत्र प्रिपरेशन् प्रिपेर्ड् ऐ एम् प्रिपेर्ड् वाट् ऐ डिड् वास् प्रिपरेशन् तत्र सज्जता भेदः
किं किञ्चित् किञ्चित् अवगतं
भगिनि तत्र सज्जता भिन्नः
न एकवारं पुनः वदतु
भगिनि यत् कुर्मः इदानीं भवती उक्तवती भवती सज्जा वा इत्युक्ते किं वदतु पुनः
another preparation asti iti
va did you do the preparation have you done the preparation when are you going to do the preparation bhavati kada sajjatam karishyati sajjatam binnah sajjah visheshanam bhavati iti krutva purushah sajjah mahila sajjah मित्रं सज्जम् समीचीनं वा अस्तु
महोदय वदतु अहं सिद्धा अस्मि ऐ एम् रेडि
तादृशरूपं तादृशरूपं भवती तदेव वदति अहं सिद्धः अस्मि पुरुषः वदति अहं सिद्धः अस्मि
सिद्धः अस्मि आं महोदय
अतः तत्र तादृशभेदः अत्रापि सज्जः सज्जा सज्जं किन्तु सज्जता तत् सर्वदा स्त्रीलिङ्गे सज्जता स्त्रीलिङ्गे सज्जः सज्जा सज्जं तत्र लिङ्गभेदः अस्तु शुभ भगिनि अग्रे तृतीया तत्र निर्दिष्टपदानां प्रयोगेण वाक्यानि वदत इति अद्यतनकार्यं
स्वस्य वाक्यानि किल महोदय अस्तु अधो निर्दिष्टपदानां प्रयोगेण वाक्यानि वदत अद्यतनकार्यम् अद्यतनकार्यम् अधुना एव करणीयम् अधुना एव करोतु अधुना एव करोतु इति अस्ति किल महोदय
अस्तु भगिनि अद्यतनकार्यं इदानीं करणीयम् अस्ति समीचीनम् अथवा अद्यतनकार्यम् एतावत् न कृतम् अस्तु अस्तु धन्यवादः भगिनि अस्तु वंशीसुध भगिनि इदानीं ह्यस्तनपाठं
ह्यस्तनपाठम् अद्य पुनः एकवारं पठतु
पुनः एकवारं पठतु समीचीनं लक्ष्मी भगिनि इदानीं श्वस्तननाटकम्
अहं श्वस्तननाटकमेव वक्तव्यं
श्वस्तननाटकम् इति तत्र प्रायशः तत्र विभक्ति प्रथमा इति नियमः नास्ति इति मन्ये किन्तु तत्र श्वस्तननाटकम् इति पदम् नाटकस्य किमपि भवितुम् अर्हति तत्र
अहं श्वस्तननाटकस्य अभ्यासम् अद्य एव करोमि
समीचीनं भगिनि तावदेव अस्तु अग्रे उषा भगिनि इदानीन्तनसूचनाम्
इदानीन्तनसूचनां कोविड् कृते डालस् नगरे इदानीन्तनसूचना सम्यक् अस्ति
अस्तु समीचीनं भगिनि अस्तु सन्तोषजनकः वार्ता
इदानीन्तनसूचनाम् इत्युक्ते अर्थं किं महोदय इदानीन्तनसूचनां
करेण्ट् करेण्ट् न्यूस् इति
इदानीन्तन करोना करोना वार्ता इदानीन्तन
करोना वार्ता इति अस्तु अग्रे वेद भगिनी अग्रे
कोषकस्य सहायेन दशवाक्यानि रचयत कोषकस्य
भवती एकं करोतु केवलम् एकं करोतु
सः अद्यतन समाचारं
पठति समीचीनं भगिनि. अस्तु नरेश महोदय, इदानीं द्वितीयवाक्यं.
पूर्वतन
यत्किमपि तत्र एतदेव करणीयमिति नास्ति, केवलं सर्वे एकम् एकं वाक्यं कुर्वन्तु इति तावदेव. हा,
सा पूर्वतन समाचारं पठितवती.
पठितवती समीचीनम्. अस्तु गीताञ्जलि भगिनि.
सः श्वस्तन समाचारं पठिष्यति.
पठिष्यति, हा, सः श्वस्तनसमाचारं पठिष्यति. शोभा भगिनी अग्रे.
सा ह्यस्तन श्वस्तन ह्यस्तनसमाचारं पठितवती.
पठितवती समीचीनं. न न न, पूर्वतनसमाचारं कृतं.
अस्तु अस्तु.
समाचारं
कृतमस्ति. अस्तु भगिनि, क्षम्यताम्. अस्तु शोभ भगिनि, पूर्वतन इति प्रायशः स्वीकरणीयं.
तदपि कृतम् इति
चिन्तितं वा? अस्तु अस्तु.
परन्तु श्वस्तन समाचारं नास्ति.
श्वस्तनसमाचारम् अस्तु. सा श्वस्तनसमाचारं श्वः एव पठिष्यति.
हा, श्वः एव पठिष्यति. समीचीनम्. अस्तु वंशी सुधा भगिनि.
आम् महोदय, किं वदामि, सा ह्यस्तनसमाचारम् अपठत् इति वक्तुम्
अपठत्. अस्तु अस्तु. हा अस्तु लक्ष्मी भगिनि.
सः इदानीन्तनसमाचारं पठति.
हा अस्तु. उषा भगिनि. उषा भगिनि.
आं महोदय, म्यूट् मध्ये. सः ह्यस्तनसमाचारं पठितवान्.
अस्तु समीचीनम्. अस्तु सर्वे एकमेकं वारं वाक्यम् उक्तवन्तः, अतः तत्र समाप्तम् इति चिन्तयामः.
महोदय, एकः प्रश्नः महोदय, ह्यस्तनपाठम् अद्यतनकार्यं यदि वयं कृते इति पदं तस्य पश्चात् योजयामश्चेत् महोदय, तन तु षष्टिविभक्ति अर्थः अस्ति, किन्तु अद्यतनकार्यक्रम कृते इति समीचीनं वा?
तत्र कार्यक्रमस्य इति विभक्ति भवति खलु, यदि कार्यक्रमस्य कृते, अतः अद्यतनकार्यक्रमस्य कृते. अत्र भवती कोऽपि कार्यक्रमं करोति इति चिन्तयतु, भवत्याः कार्यक्रमस्य कृते इति एव रूपं भवति खलु. अतः तत्र षष्ठी.
किन्तु यदि वयं वयं केवल अद्यतनकृते इति तु समीचीनं
न इति. न न न, तद् नास्ति. हा तद् नास्ति. तद् नास्ति. अतः अहम् उक्तवान् रूपं षष्टिविभक्तिरूपम् इव अस्ति, किन्तु तत्र षष्टि अद्य इति पदस्य षष्टिरूपं तु नास्ति खलु. हा, विभक्ति न कर्तुं शक्नुमः. अद्य तु अव्ययम् अस्ति.
अतः एतत् असमीचीनम्.
अद्य इति अस्ति चेत् तत्र षष्टि, कृते अस्ति चेत् षष्टि एव. अतः एतत् षष्टिरूपस्य अर्थः तत्र अस्ति इति, तन इति. किन्तु एतत् साक्षात् विभक्ति नास्ति खलु. अतः अद्यतनपत्रिका इति अस्ति चेत् अवगन्तुं शक्नुमः तत्र, ओ टुडेस् न्यूस् पेपर् इति. किन्तु तत् अद्य इति पदस्य षष्टि नास्ति. समीचीनं वा भगिनि? अस्तु
महोदय,
केवलम्
अद्यतन पूर्वतन श्वस्तन इदानीन्तन ह्यस्तन अस्ति वा, अथवा
परश्वः प्रपरश्वः इति पदम्
समीचीनप्रश्नः अस्ति भगिनि, समीचीनमेव. हा हा हा, समीचीनमेव. तत्र तन इति तत्र तस्य प्रयोगः केवलम् अत्र भवति इति न, किन्तु कुत्र कुत्र भवति इति तत्र नियमः कः इति न जानामि, किन्तु केवलम् एतदेव अस्ति इति नास्ति, अन्यत्र अपि स्थापयितुं शक्नुमः इति स्मरामि, किन्तु कुत्र कुत्र इति तत्तु सम्यक्तया न जानामि. किन्तु समीचीनमेव भगिनि, तत्र परह्यस्तन इति प्रायशः कर्तुं शक्नुमः इति मन्ये भगिनि, तस्य अधिकमपि कर्तुं शक्नुमः इति मन्ये, किन्तु कुत्र कुत्र इति न स्मरामि.
अपि तु गतवासरे, गतवर्षे,
तत्र प्रायशः न. तत्र प्रायशः न, किन्तु तत्र
अव्ययपदम् अव्ययपदं योग एव तन योजयामः न महोदय.
न स्मरामि भगिनि, सम्यक्तया न स्मरामि, न स्मरामि, द्रष्टव्यमस्ति. किन्तु तत्र केवलम् अत्र इति न, सर्वत्र इति तदपि न.
सर्वत्र तु न, किन्तु अस्मिन् पुटे
तत्र उदाहरणं दृष्ट्वा इति मन्ये इति चिन्तयितुं शक्नुमः, किन्तु सः एव नियमः इति न जानामि. किन्तु किन्तु तत् प्रायशः तादृशनियमः भवति, किन्तु सम्यक्तया न स्मरामि.
अस्तु महोदय,
अस्तु अस्तु अस्तु. इदानीं तत्र
संख्यावाचक अपि तम आयाति, अत्र तु तन आयाति.
तत्र
किन्तु अर्थः तद्भिन्नमेव.
तादृश तत्र सत्यं 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 भगिनि. तत्र तमपुटे इति यादृशरूपं भवति सत्यं.
विंशतितमपुटे तमपुटं, किन्तु अत्र तु तन आयाति, तत्र तु
तन. सत्यं, किञ्चित् भेदः अस्ति. सत्यं भगिनि, अस्तु अस्तु. इदानीं तत्र एकः एव अभ्यासः अवशिष्टः अस्ति तत्र. अस्तु, एतदपि कुर्मः. नरेश महोदय आरम्भं करोति वा महोदय?
आं महोदय. कोष्ठके स्थितान् शब्दान् उपयुज्य यथोदाहरणं वाक्यानि लिखत. इन्द्रप्रस्थं देहली. इन्द्रप्रस्थस्य इदानीन्तननाम देहली. देहल्याः पूर्वतननाम इन्द्रप्रस्थम्. गान्धारः गन्धारः. गान्धारः गन्धारस्य इदानीन्तननाम कन्धारः. कन्धारस्य पूर्वतननाम
महोदय, तत्र कन्धार् इति तत्र तादृशपदं रकारान्तपदं, तस्य षष्टि इति न जानीमः खलु, अतः एतत् कुर्मः. यदि विभक्ति न कर्तुं शक्नुमः, कन्धार् नगरस्य इति. कन्धार् इति रकारान्तपदम् अस्ति खलु महोदय, तत्र षष्टि अकारान्त इव न कर्तुं शक्नुमः खलु.
आम् आम्. गन्धारः नगरस्य पूर्वतननाम गान्धारः.
गान्धारः इति समीचीनं महोदय. अस्तु, वेदा भगिनी अग्रे.
लवपुरं लाहोर्. लवपुरस्य इदानीन्तननाम लाहोर् नगरस्य पूर्वतननाम लवपुरम्.
हा, समीचीनं भगिनि, अस्तु. गीतञ्जलि भगिनि.
भाग्यनगरं भाग्यनगरस्य इदानीन्तन नाम हैदराबाद् अस्ति. हैदराबाद् नगरस्य पूर्वतन नाम भाग्यनगरम्
आसीत्. पूर्वतन नाम आसीत् अथवा पूर्वतन नाम हैदराबाद् भाग्यनगरम् अस्ति, तदपि वक्तुं शक्नुमः. अस्तु,
भाग्यनगरं तु समीचीनं नाम एव.
हा सत्यं.
कर्णावती, आं महोदय, कर्णावती अपि अहमदाबाद्. कर्णावत्याः इदानीन्तन नाम अहमदाबाद् इति अस्ति. अहमदाबाद् नगरस्य पूर्वतननाम कर्णावती इति आसीत्.
हा समीचीनं भगिनि. हा अस्तु, वंशीसुधा भगिनी अग्रे.
आं महोदय, लक्ष्मणपुरं लखनौ. लक्ष्मणपुरस्य इदानीन्तननाम लखनौ अस्ति, परन्तु तत्र लखनौ षष्ठीविभक्ति किं भवति?
नगरस्य लखनौ नगरस्य
लखनौ नगरस्य पूर्वतननाम लक्ष्मणपुरम् आसीत्.
हा इति तावदेव. तत्र लखनौ अथवा कन्दहार् इति तत्र तत्र किं करणीयमिति न जानीमः खलु. तत्र किन्तु तत्र लखनौ इति तत् जानीमः खलु. तत् लक्ष्मणः अपि लखनः इति भवति खलु. तत्र प्रायश बेङ्गाली भाषायां तत्र लखन् इति एव रूपं भवति, अतः लखनौ अपि लक्ष्मणः समानम् इति. अस्तु अग्रे लक्ष्मी भगिनी.
अधुना एव ज्ञातवती लाहूर् नामस्य लवपुरम् अस्ति महोदय.
सत्यं भगिनी, सत्यं. अस्तु अग्रे लक्ष्मी भगिनी.
पाटलीपुत्रस्य इदानीन्तननाम पाट्ना. पाट्ना नगरस्य पूर्वतननाम पाटलीपुत्रम् आसीत्.
समीचीनं भगिनी. अस्तु अस्तु, तर्हि अतः तत्र अव्यय इति विषयं तस्य अभ्यासं जातम् इति मन्ये. अव्ययानां नियमः अपि उदाहरणानि अपि उदाहरणानाम् अभ्यासः अपि वयं कृतवन्तः एतावत्. इदानीं तत्र अग्रिमविषयः अस्ति तृतीया विभक्तिः इति. तत्र किमस्ति तत्र? हा, यदि तत्र गीतासोपानं पुस्तकं पश्यामश्चेत् तत्र पश्यन्तु, तत्र तृतीया विभक्तिः प्रायशः अन्तिमविभक्तिः अस्ति इति मन्ये. तदनन्तरं तत्र तुमुन् इति अस्ति, अतः इति अस्ति, तदनन्तरं सम्बोधनमस्ति, अव्ययानि इति, पुनः अव्ययानि आगच्छन्ति, तदनन्तरं सप्तविभक्तयः इति अस्ति. अतः यदि एतत् तृतीयाविभक्ति इति विषयं समापयामः तर्हि सर्वाः विभक्तयः अस्माभिः दृष्टवन्तः भवन्ति. अतः तत्र तत्र गीतासोपनस्य स्वरूपं तत्र प्रथमभागस्य स्वरूपं सर्वे जानन्ति इति मन्ये खलु. तत्र सर्वदा किं कुर्वन्ति ते, तत्र क्रियापदस्य विषये एकः अध्यायः, तदनन्तरं नामपदस्य विषये एकः अध्यायः, तदनन्तरम् अन्यत् किमपि स्वीकृत्य एव ते अध्यायस्य निरूपणं कुर्वन्ति. अतः इदानीम् अव्ययम् इति आसीत्, तदनन्तरं तृतीया विभक्ति, तदनन्तरं तुमुन् इति भवति. अस्तु तर्हि अग्रे गच्छामः. तत्र तृतीया विभक्ति
अभिमन्युः, द्वितीयभक्ति अभिमन्युं, तृतीयभक्ति अभिमन्यो, तृतीयभक्ति कथम् आगच्छति महोदय?
इदानीमेव कुर्मः भगिनि, अद्य सः एव इदानीं कुर्मः. तृतीयविभक्ति अभिमन्युना इति रूपम् अस्ति भगिनि.
अपि च अभिमन्यवे अस्ति वा अभिमन्
गुरुणा वा
गुरुणा
गुरुणा
गुरवे
गुरवे
गुरवे गुरवे किं भवति
अभिमन्यवे अभिमन्यवे अभिमन्योः अभिमन्योः अभिमन्यौ.
इदानीमेव पश्यामः भगिनि तृतीयविभक्तिरूपं. हा वदतु.
परन्तु अभिमन्यु एकमेव न महोदय, अन्य किम् अन्य कोऽपि न.
रामः अपि एकः एव अस्ति, किन्तु रामः रामो रामः इति वदामः खलु, किमर्थम्?
परन्तु अभिमन्यु नाम एकमेव
केवलं तत्र तत्र हा सत्यं, किन्तु तत्र अभ्यासार्थं तावदेव रामः रामो रामः इति किमर्थं? केवलम् अभ्यासार्थं तत्र उकारान्तपदम् अभिमन्यु इति अस्ति. यदि यदि तस्य विषयस् तद् पदम् उपयुज्य किमपि कर्तुं शक्नुमः चेत् विभक्तिरूपम् आवश्यकम् इति कृत्वा तस्य अभ्यासं कुर्मः तावदेव. तत्र अनेकाः अभिमन् गुरवः अभिमन्यवः सन्ति इति न खलु?
आं महोदय, अभिमन्युम् अभिमन्यु अभिमन्यून् अस्ति वा महोदय तृतीयविभक्ति बहुवचने?
इदानीं पश्यामः भगिनि, तृतीयविभक्ति एव इदानीं भवति.
अस्तु महोदय,
अतः किञ्चित् किञ्चित् प्रतीक्षां करोतु, पश्यामः. समीचीनं वा? यदि द्रष्टुम् इच्छति चेत् तत्र अग्रिमे तत्र पेज् 169 पश्यतु, तत्र सर्वं दत्तमस्ति.
अभिमन्युना अभिमन्युभ्याम् अभिमन्युभिः
इति. समीचीनं भगिनि. हा अस्तु, तर्हि तत्र शोभा भगिनी तत्र आरम्भं करोति वा भगिनि?
आं महोदय. अस्तु, तत्र एकनिमिषम् पश्यत उच्चैः पठत च तृतीयविभक्तिः. तत्र अर्जुनः रथः दत्तम्, अर्जुनः रथेन गच्छति इति तृतीयविभक्तौ भवति. अर्जुनः बाणेन प्रहरति, भीमः गदया प्रहरति, आचार्यः जलेन अभिषिञ्चति. अभिषिञ्चति इति न, तत्र सकारः दृष्टवती, मूर्धन्यशकारः न दृष्टवती.
तत्र एतादृश अभिषेकः इति तत्र तु मूर्धन्यशकारः एव अस्ति खलु?
ओ अस्तु, तत्र अभि
इति अस्ति वार्ता अस्ति, सत्यं भगिनि. तत्र सिञ्चनं भवति, किन्तु तत्र धर्मस्य कार्यः अस्ति इति अतः तत्र अभिसिञ्चति इति, केवलं तत्र साधारणसिञ्चनं नास्ति. अस्तु, तत्र अभिषेकं तत्र तादृशार्थे तत्र सिञ्चनं, किन्तु अभिसिञ्चनम्. अत्र यानि उदाहरणानि सन्ति तत्र अर्जुनः रथेन गच्छति, अर्जुनः बाणेन प्रहरति, भीमः गदया प्रहरति, आचार्यः जलेन अभिषिञ्चति. तत्र सर्वत्र तृतीयाविभक्तेः रूपं द्रष्टुं शक्नुमः. एतद्रूपं तृतीयाविभक्तेः रूपं तृतीयाविभक्तेः प्रसिद्धप्रयोगः प्रयोगस्य रूपं प्रसिद्धप्रयोगः तृतीयाविभक्तेः प्रसिद्धप्रयोगः यथा चतुर्थीविभक्तेः प्रसिद्धप्रयोगः अस्ति. आर्थं, किमर्थम् इत्युक्ते युद्धार्थं, परीक्षार्थम् इति तत्र, अथवा परीक्षाय इति रूपम् अस्ति, उत्तरं भवति तत्र चतुर्थीविभक्तिरूपं. तादृशरूप प्रयोगः अत्र तृतीयविभक्तेः प्रयोगः अस्ति. माध्यमं, तत्र अर्जुनः गच्छति. अर्जुनः गच्छति इदानीं कुत्र गच्छति इति न, इदानीं प्रश्नः अस्ति केन माध्यमेन सः गच्छति. अर्जुनः केन माध्यमेन गच्छति? अर्जुनः रथेन गच्छति. अन्यत् उदाहरणं एतत्तु अभ्यासपुस्तके एव अस्ति. तत्र सः खादति केन माध्यमेन? खादति सः हस्तेन खादति. हस्तः अस्ति, हस्तेन खादति, हस्तः माध्यमम् अस्ति. अतः माध्यमं यत्र भवति तत्र तृतीयविभक्तिरूपं भवति. तत्र अर्जुनः प्रहरति. केन माध्यमेन प्रहरति? बाणेन प्रहरति. भीमः प्रहरति, तस्य माध्यमं किम्? केन माध्यमेन प्रहरति? भीमः गदया प्रहरति. आचार्यः अभिषिञ्चन्ति, केन माध्यमेन अभिषिञ्चन्ति? जलेन अभिषिञ्चति. अतः तत्र माध्यमम् इति. अग्रे पश्यामः, अन्यः प्रयोगः अपि अस्ति तृतीयविभक्तेः, सः अस्ति भावप्रयोगः. तद् अग्रे आयाति. तत्र अहं सन्तोषेन गायामि इति, भावः सन्तोषः, सन्तोष अनुभवन् गायामि, अहं सन्तोषेन गायामि इति. सः सन्तोषेण गच्छति इति, तादृश तत्र माध्यमं नास्ति, भावः अस्ति. तत्रापि तृतीयविभक्तिरूपं भवति इति वार्ता. अस्तु, इदानीं तत्र उदाहरणानि पश्यामः, तदनन्तरं साधारणरूपमपि पश्यामः. तत्र अकारान्तपुल्लिङ्गः, आकारान्त, ईकारान्तस्त्रीलिङ्गः, अपि अकारान्त नपुंसकलिङ्ग, तेषां रूपाणि अपि पश्यामः. तदनन्तरम् अग्रिमे वर्गे तस्य अभ्यासं सम्यक्तया कुर्मः. अस्तु, तर्हि अग्रे तत्र एकमेकं वाक्यं पठामः. तत्र वेदा भगिनी पठति वा? तत्र उच्चैः पठत इति यत्र अस्ति,
उच्चैः पठत. भटः हयेन गच्छति.
हा, तत्र भटः हयेन गच्छति. हयः इत्युक्ते अश्वः. हयग्रीवः इति प्रसिद्धः अस्ति खलु. अश्वेन भटः गच्छति. केन माध्यमेन गच्छति? हयेन. हयेन गच्छति. समीचीनं. हा, वंशीसुधा भगिनी अग्रे.
हा महोदय. कृष्णः चक्रायुधेन शिशुपालं हतवान्. केन माध्यमेन इत्युक्ते चक्रायुधेन मारितवान्.
हा, चक्रायुधेन शिशुपालं हतवान्. हा, समीचीनं भगिनि. अस्तु, अग्रे लक्ष्मी भगिनी अग्रे. हा, तत्र माध्यममिति, हा, तत्र आवरणम् आवृतम् इत्युक्ते तस्य अन्ते तत्र ज्ञानम् अस्ति, किन्तु ज्ञानं परितः अज्ञानम् अस्ति इति. अतः ज्ञानं न द्रष्टुं शक्नुमः, अज्ञानम् अज्ञानेन आवृतम् अस्ति. आवृतम् अस्ति, एन्वेलप्ड् इति, एन्वेलप्ड् इति आवृतम्. उषा भगिनी अग्रे.
अग्निः धूमेन आवृतः. अग्निः हरिः शब्दवत् धूमेन. धूमः, धूमः, धूमौ, धूमः, अकारान्तपुंलिङ्गशब्दः,
अकारान्तपदम्.
अग्निः धूमेन आवृतः. अग्निः इत्युक्ते फायर्, धूम, स्मोक्, धूमेन आवृतः.
अथवा अन्वलोप्ड् बै. अतः तत्र अग्निः न द्रष्टुं शक्नुमः, सर्वत्र धूमः अस्ति, धूमः दृश्यते, अग्निः न दृश्यते. तत्र आवृतः किमर्थम् अस्ति? आवृतं किमर्थं नास्ति?
आवृतः अग्निः पुंलिङ्गपदम् अस्ति.
हा, अग्निः पुल्लिङ्गपदम् अस्ति, आवृतः विशेषणम् अस्ति इति कृत्वा
विशेषण विशेषम्.
हा, तावदेव समीचीनम्. अग्निः आवृतः, ज्ञानम् आवृतम्, तावदेव समीचीनम्. अस्तु, अग्रे नरेश महोदय.
कृष्णः अङ्गुल्या निर्दिशति.
हा,
अङ्गुली तृतीयविभक्ति अङ्गुल्या.
हा, समीचीनं महोदय. अङ्गुली अङ्गुल्या, इकारान्तपदम् अङ्गुली अङ्गुल्या, निर्दिशति कया निर्दिशति, अङ्गुल्या निर्दिशति. गीतञ्जलि भगिनी अग्रे.
भक्तः मालया देवम् अलङ्करोति. भक्तः कया देवम् अलङ्करोति? भक्तः मालया देवम् अलङ्करोति. स्त्रीलिङ्गपदम्, आकारान्तपदं महोदय.
सत्यं, हा, तृतीया, समीचीनं. मालया, माला मालया, हा, समीचीनं. शोभा भगिनी अग्रे.
साधकः योगबलेन परमपुरुषम् उपैति. तत्र योगबलेन बलम् इति पदस्य तृतीयविभक्ति. परमपुरुषम् उपैति, उप एति इति दृष्टवन्तः. बहु एको अस्ति महोदय,
सम्यक् न श्रूयते. हा, तत्र, हा, इदानीं प्रायः नास्ति. अस्तु, हा, वदतु भगिनि. धन्यं, हा,
तावदेव महोदय.
हा, उप इति इत्युक्ते तत्र गच्छति, प्राप्नोति, समीपं गच्छति इति. हा, परमपुरुषं प्राप्नोति साधकः योगबलेन. हा, समीपं गच्छति परमपुरुषस्य, समीपं गच्छति प्राप्नोति इति अर्थे. तत्र ब्रह्मज्ञानं प्राप्नोति इति, तादृश परमपुरुषम् उपैति केन माध्यमेन, योगबलेन इति. अस्तु, अग्रे वंशीसुधा भगिनी.
आं महोदय. दुर्योधनः गदया शत्रून्
प्राहरत्.
अस्तु, तत्र लङ्लकाररूपमस्ति, प्रायोगः अहरत् इति अस्ति.
हा, समीचीनं भगिनि. हरति, अहरत्, प्र उपसर्गः, अतः प्राहरत्.
प्राहरत्, तत्र गदया कया शत्रून् प्राहरत् इति गदया, गदाशब्दस्य स्त्रीलिङ्गशब्दस्य तृतीयविभक्ति गदया इति.
हा, इति समीचीनं भगिनि. हा, गदया शत्रून् प्राहरत् इति, समीचीनं. प्राहरत्, समीचीनं भगिनि. अस्तु, अग्रे वेदा भगिनि.
योधः हस्ताभ्यां काहलं वादयति. काहलं वादयति, काहलम् इति किं किमर्थमस्ति काहलं?
काहलं तत्र चिन्तयामि भगिनि, तत्र किमपि बाध्यम् अस्ति इति.
योधः हस्ताभ्यां काहलं वादयति,
वादयति, किमपि वाद्यम् अस्ति तत्र, तत्र युद्धवाद्यं वा, हस्ताभ्यां, हस्तद्वयं, हस्तद्वयम् उपयुज्य द्विवचनं, द्विवचनं हस्ताभ्यां, हस्ताभ्यां
द्विवचनं,
हस्त, हा, वादयति. एतावत् केवलम् एकवचनरूपमेव दृष्टवन्तः खलु, अतः तत्र द्विवचनरूपमपि दत्तवन्तः, तावदेव. हा, अस्तु, अग्रे लक्ष्मी भगिनि. इति, हा, समीचीनं भगिनि, तावदेव. हा, अस्तु, अग्रे लक्ष्मी भगिनि.
वयं पादाभ्यां सञ्चरामः.
हा, वयं सर्वे, हा, वदतु भगिनि. हा, माध्यमं किम् अस्ति? केन सञ्चरामः? केन सञ्चरामः? पादाभ्यां सञ्चरामः वयम्. अस्ति, अतः द्विवचने पादाभ्याम् इति भवति. समीचीनं भगिनि, पादाभ्यां. हा, उषा भगिनी अग्रे.
आं महोदय. बलरामः हलेन शत्रून् मारितवान्. केन बलरामः शत्रून् मारितवान्? बलरामः हलेन शत्रून् मारितवान्. हलम् हलम् अस्ति वा? हलः अस्ति वा? हलेन
प्रायशः हलम् इति चिन्तयामि भगिनि.
हलं हले हलः
न न हलम् अस्ति चेत् हलं हले हलानि इति मन्ये.
हलम् अस्ति वा? हलः अस्ति वा महोदय?
न स्मरामि भगिनि. नपुंसकलिङ्गपदम् अस्तु. धन्यवादः भगिनि. अस्तु, हलेन इति तृतीयविभक्तिरूपम् अकारान्तपदम् अस्तु. समीचीनम् अस्तु. अग्रे नरेश महोदय अग्रिमे पुटे तत्र कोष्टकम् अस्ति, तद् दृष्ट्वा तत् एकवारं पठित्वा तत्र प्रायशः समापयामः इति मन्ये. तत्र तत्र
महोदय हलः अपि हलं नपुंसकलिङ्गम् अपि पुंलिङ्गं
द्वयमपि अस्ति वा? अस्तु अस्तु अस्तु. अतः क्लेशः भवति, अतः क्लेशः भवति. एकः एकः वदति न न अकारन्त पुल्लिङ्ग, अन्यः वदति न न नपुंसकलिङ्ग.
अर्धः अर्धः भिन्नः अस्ति महोदय, अर्धः भिन्नः
इति वा?
न न अर्थ
भिन्नम्
प्लौ प्लौ अपि अस्ति, हल प्लौ अपि अस्ति.
हल शत्रून् मारितवान्
अतः प्लव् इति हलम् इति एव भवति अहं चिन्ता. परन्तु
अस्तु, किन्तु इदानीं मास्तु तृतीयविभक्तिरूपं पश्यामः. अस्तु, हलस्य विषयः नास्ति एषः वर्गः खलु. अस्तु, इदानीम् अग्रे
गच्छन् इत्युक्ते आयुध अस्ति न महोदय?
सत्यं सत्यं सत्यं.
लव् लव्
हा
बलरामः हलः आयुधः
हा इति तस्य हलायुधः इति एव तस्य आयुधः. अस्तु, अग्रे नरेश महोदय अग्रिमे पुटे तत्र हा कोष्टकम् अस्ति, तत् एकवारं तत्र पठतु महोदय. हस्तः इति किमस्ति?
प्रथमा विभक्तिः हस्तः हस्तौ हस्ताः. द्वितीयविभक्ति हस्तेन हस्ताभ्यां हस्तैः.
हा इति समीचीनम्. अस्तु, अग्रे गीताञ्जलि भगिनी तत्र माला इति रूपं.
माला माले मालाः. तृतीया मालया मालभ्यां माले मालै
न मालया मालाभ्यां माला मालाभिः
किं महोदय भ्रमः मालाभिः क्षम्यतां
मालाभिः 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 हा समीचीनं भगिनि. अस्तु, शोभा भगिनि सूची इति पदस्य.
आं महोदय, सूची इति स्त्रीलिङ्ग दीर्घैकार. सूची सूच्यौ सूच्यः तृतीयविभक्तौ सूच्या सूचीभ्यां सूचीभिः इति भवति.
सूचीभिः अतः तत्र देवः देवैः, लता लताभिः, नदी नदीभिः इति अपि देवः देवेन, लता लतया, नदी नद्या, कुञ्चिका कुञ्चिकया इति एतत् सर्वं दृष्टवन्तः वयम्. अन्तिमं तत्र फलं फले फलानि तत्र तु जानीमः, तत्र पुल्लिङ्गरूपवत् एव भवति तृतीया आरभ्य, अतः फलेन फलाभ्यां फलैः इति रूपं भवति. अस्तु, अतः तत्र इदानीं परिचयं जातं, तृतीयाविभक्तेः परिचयं जातम् अद्य. अग्रिमे वर्गे तत्र अभ्यासम् अन्यानि रूपाणि अपि दृष्ट्वा सर्वं करिष्यामः. अस्तु, तर्हि तत्र कः अथवा का कर्तुम् इच्छति अद्य तत्र अन्ते प्रार्थना इति रूपे तत्र?
अहं वदामि महोदय.
अस्तु, गीताञ्जलि भगिनी वदतु भगिनि. अस्तु,
ॐ पूर्णमदः
पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति 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 सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु ॐ शान्ति शान्ति शान्ति
धन्यवादः भगिनी सर्वेषां नमस्कारः सर्वेषां नमस्कारः नमः धन्यवादः प्रश्नः